इमायिरादित्येभ्यो घृतस्रो सनाद्राजभ्यो जुह्वा जुहोमि शृणोतु मित्रो अर्जमा भगो नस्तु विधातो वरु नो दक्ष अंसाः इमां स्तोमं सक्रतवो मे अद्य मित्रो अर्जमा वरु नो जुषन्त आदित्या सस्तुज योधार भूता अवृजियान भर्जारिष्टाः आदित्या स गुरवो गभीरा अलब्धासो दिप्सन्तो भूर्यक्षाः अन्तः पश्यन्ति वृजोत साधु सर्वम् राजभ्यः परमाचिदन्ति धारयन्तादित्या सो जगत्सा देवा विश्वस्य भुवनस्य गोपाः दीर्घादियो रक्ष्यमाना सुर्यमृता वा नश्चयमाना ऋणानि विद्यामादित्या अवसो वा अस्य निदर्जमन् भज आचिन्मजोभो युष्माकम् मित्रावरुणा प्रणीतौ परिश्वभ्रे मधुभितानि वृद्या सुगो हिव अर्जमन्मित्रबन्धानक्षरो वरुणसाधुरस्ति तेनादित्या अधियोचतानो यच्छतानो दुष्परिहन्तु धर्म विवर्तनो अदितीराज पुत्रादिद्वेषाम् सर्जमासुकेभिः बृहन्मित्रस्य वरुणस्य धर्मोपश्याम पुरुवीरा अरिष्टाः तिस्रो भूमे अर्धारयन्ते व्रताभिदये अन्तरेषाम् देनादित्या महे वो महित्वम् ददर्जमन्वरुणमित्रदारु रीरो जला दिव्या धारयन्त हिरण्यजा सुरजोधार भूताः अस्वप्नजो अनिमिषा अदब्धा गुरुसंसा ऋतमे मत्याय त्वम् विश्वेराम् वरुणासि राजा ये च देवा सुरजे च मर्ताः शरम् नो रास्व शरदो अभिदक्षे श्यामायोम् त्रिसुधीतानि पूर्वाः तदक्षिणाभिषेकितेन संज्ञानप्राचीनमादित्यालोकपश्चा आज्ञादिद्वसवो धीर्याजिद्युष्पाणीतो अभजम् ज्योतिरस्याम् यो राजभ्यनुजनिभ्यो ददासयम् वर्धयन्ति पुष्टयश्च नित्याः सदेवाद्यादिप्रथमो रथेन वसुधा वा विदधेषु प्रशस्तः सुजीरवः सूजलसा अदब्धमुपक्षेति वृद्धवजा सुवीरः किष्टम् घ्यन्त्यन्ति तो न दूराद्यादित्यानाम् भवति प्रणीहितौ अदिते मित्रवरुणोदमृजयद्वो भयम् च क्रमागच्छिदागाः उर्वस्यामभयम् ज्योतिरञ्जमानो दीर्घाभिनसन्तमिश्राः उभे अस्मै वैवयदः समीचीगोषिकम् सुभगो नामपुष्यन् वाचयावादयन्नादिभृत्सु भावद्धौ भवतः साधु अस्मै यावो मायाभिद्रुवे इदत्राः पासा आदित्यारिपवे विदृताः अश्लीपता अतिजेषम् रथेनाहृष्टा पुरा वा सर्वम् स्याम माहम् मघो नावरुणप्रियस्य भूरिदाम्नाभिधंसो न मापेः मा रायो राजन् श्रियमादवस्थाम् बृहद्वदेव विदधेः सुवीराः